इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। ह्यः लोकसभा निर्वाचनस्य चतुर्थे चरणे सायं 5:45 प्रायः 67.25% मतदानम् अभवत्। अस्मिन् चरणे 9 राज्याणाम् 1 केन्द्रशासित प्रदेशस्य च 96 लोकसभासनानां कृते मतदानं जातम्। रात्रौ 5:45 आन्ध्रप्रदेशे 70%, बिहारे 57.6%, तेलंगानायां 64.74% मतदानम् अभवत्। जम्मूकश्मीरे 37.98%, झारखण्डे 65.2%, मध्यप्रदेशे 70.98%, महाराष्ट्रे 61.64%, ओडिशायां 73.97%, उत्तरप्रदेशे 58.5%, पश्चिमबंगे 78.37% च मतदानानि समनुष्ठितानि। आन्ध्रप्रदेशस्य 25, तेलंगानायाः 17, उत्तरप्रदेशस्य 13, महाराष्ट्रस्य 11, मध्यप्रदेश पश्चिमबंगालयोः प्रत्येकम् 8, बिहारस्य 5, झारखण्ड ओडिशा राज्ययोः प्रत्येकम् 4 सहैव जम्मूकश्मीरस्य 1 आसनस्य च कृते मतदानानि जातानि। निर्वाचनायोगेन उक्तं यत् मतदानप्रक्रिया शान्तिपूर्णरीत्या सम्पन्नम् जातम्। श्रीनगर संसदीय क्षेत्रे 37.98% मतदानं जातम्, यत् दशकेषु सर्वाधिकम् अस्ति। चदूरा, साहे शरीफ, गंदेरबल, कंगन, खान साहिब, सोफियान विधानसभा क्षेत्रेषु 45%+ अधिकं मतदानं जातम्। बडगांव, गंदेरबल, पुलवामा, सोफियान च क्षेत्रेषु पूर्णतया शान्तिपूर्णम् उच्च मतदानं च जातम्। आयोगेन उक्तं यत् एकस्मिन् दुर्भाग्यपूर्णे घटनायां तेलंगाना राज्यस्य चम्पेट नगरस्य 1 मतदान अधिकारिणः कर्तव्यकाले एव निधनम् अभवत्। लोकसभा निर्वाचनस्य शेषेभ्यः 3 चरणेभ्यः प्रचाराभियानं शीर्षस्थानं भजते। विभिन्नदलानां वरिष्ठनेतॄणां जनसभाः, मार्गीयप्रदर्शनानि च भविष्यन्ति। प्रधानमन्त्री भाजपादलस्य वरिष्ठनेता च नरेन्द्रमोदी ह्यः बिहारराज्ये अनेकानि पथप्रदर्शनानि कृतवान्। असौ ह्यः प्रातः हाजीपुर मुजफ्फरपुर क्षेत्रयोः जनसभाः सम्बोधितवान्। सायंकाले प्रधानमन्त्री श्रीमोदी उत्तरप्रदेशस्य वाराणसी नगरे एकं मार्गीय प्रदर्शनं विहितवान्। तदनन्तरं प्रधानमन्त्री अद्य वाराणसी लोकसभाक्षेत्राय स्वीय नामांकनपत्रं प्रपूरयिष्यति। कांग्रेसदलस्य वरिष्ठनेता राहुल गांधी उत्तरप्रदेशस्य रायबरेली जनपदे एकां जनसभां सम्बोधितवान्। असौ आश्वासितवान् यत् कांग्रेस इंडी संयुक्तदलं यदि प्रशासने आयास्यति तर्हि अस्य प्रथमं दायित्वं भविष्यति निर्धन कृषकाणां करमुक्ति प्रदानम् इति। केन्द्रीय जलपूत जलमार्ग मन्त्री सर्वानन्द सोनोवाल ह्यः ईरान देशाय सम्प्राप्तवान्। सूचनानुसारि मन्त्री भारत ईरान देशयोर्मध्ये दीर्घकालिक महत्वपूर्ण चाम्बहार जलपोतस्थानक सहभागित्वपत्रे 1 हस्ताक्षरं कृतवान् इति वार्ताः।